इयम् आकाशवाणी। सम्प्रति वार्ताः श्रूयन्ताम्। प्रवाचकः रूपलाल शर्मा। मुख्य वार्ताः। प्रधानमन्त्रिणा श्रीमता नरेन्द्रमोदिना राजस्थानस्य चित्तौड़गढ़े भूयोपि 7,000 कोटि रूप्यकाणां विभिन्नाः विकासात्मक परियोजनाः राष्ट्राय समर्पिताः। समुदीरितवान् च यत् एताभि परियोजनाभि राजस्थानस्य आधारभूत संरचनायां परस्पर संयोजने शिक्षायां च परिवर्तन प्रदाः प्रभावाः आगमिष्यन्ति। दिल्ली आरक्षिबलेन प्रख्यातः आतंकवादी निगडितः। असौ राष्ट्रियान्वीक्षण विभागस्य बहुचर्चित श्रेण्याः अपि शीर्षांके आसीत्। आयुष्मान भव इत्यभियानस्य अन्तर्गतं साम्प्रतं यावत् 50,000+ जनैः अंगदानस्य संकल्पः स्वीकृतः। 23,200 नोबलाख्यः पुरस्कारः कैटलिन कारिको ड्रू बिस्मैन इत्यस्य च कृते प्रदत्तः। अपि च क्रीडावार्तायां एशियाई क्रीडासु चीनदेशस्य हौंचौ नगरे अद्य भारतेन 9 रजतपदकानि 4 कांस्यपदकानि च स्वीकृतानि। पदकतालिकायां भारतं 23 स्वर्णपदकानि 22 रजतपदकानि 23 कांस्यपदकानि समेत्य 58 पदकानि विजित्य चतुर्थे स्थाने वर्तते। अथ वार्ताः विस्तरेण। प्रधानमन्त्रिणा श्रीनरेन्द्रमोदिना राजस्थानस्य चित्तौड़गढ़े 7,000 कोटि रूप्यकाणां विभिन्नाः विकासात्मक परियोजनाः राष्ट्राय समर्पिताः। प्रधानमन्त्री मेहसाणा भटिंडा गुरदासपुर बातीय ईंधन नलिकायाः अपि लोकार्पणं कृतवान्। याः 45,00,000 कोटि रूप्यकाणां व्ययेन विनिर्मिताः सन्ति। प्रधानमन्त्रिणा याः रेलवे परियोजनाः समर्पिताः तासु चित्तौड़गढ़ नीमच रेलवे पट्टिकायाः कोटा चित्तौड़गढ़ विद्युतीय रेलवे पट्टिकायाश्च द्विगुणीकरणेन सम्बद्धाः परियोजनाः सम्मिलिताः वर्तन्ते। प्रधानमन्त्री स्वदेश दर्शन योजनायाः अन्तर्गतं नाथद्वारास्थे विकसित पर्यटन सौविध्यानामपि लोकार्पणं विहितवान्। कार्यक्रमं सम्बोधयन् प्रधानमन्त्री समुदीरितवान् यत् चित्तौड़गढ़े प्रारब्धाभिः एताभिः परियोजनाभिः राजस्थानस्य आधारभूत संरचनायां परस्पर संयोजने शिक्षायां च परिवर्तन प्रदाः प्रभावाः आगमिष्यन्ति। जनानां जीवनमपि सारल्यम् अवाप्स्यति। असौ प्रावोचत् यत् निम्नक्षेत्राणां विकासः तस्य प्रशासनस्य प्राथमिकता वर्तते। असौ अग्रे निगदितवान् यत् प्रशासनेन देशस्य आकांक्षी जनपदानां चयनं कृतम्। यत्र विकासकार्याणि समाचर्यन्ते राजस्थानस्यापि अनेके जनपदाः अस्याः योजनायाः अन्तर्गतं विकसिताः भवन्ति। प्रशासनेन आकांक्षी प्रखण्डानां विकासाय कार्यं समारब्धम्। वञ्चितेभ्यः प्राथमिकतां प्रदातुं वाइब्रेंट विलेज इति कार्यक्रमः अपि समारब्धः यस्य अन्तर्गतं सीमवर्ति ग्रामाणां विकासो भवति। दिल्ली आरक्षिबलेन प्रख्यातः आतंकवादी निगडितः। अयम् आतंकवादी पुणे ISIS इत्यस्य आतंकी समूहस्य सदस्यो वर्तते। असौ राष्ट्रियान्वीक्षण विभागस्य बहुचर्चित श्रेण्यः अपि अतिवांछितः आसीत्। तस्मिन् 3,00,000 रूप्यकाणां पुरस्कारः अपि आसीत्। दिल्ली आरक्षिबलस्य विशेष प्रकोष्ठेन आतंकी क्रियात्मक समूहस्य अन्य जनाः अपि निगडिताः। क्रियात्मक समूहोऽयं विदेशस्थितैः प्रबन्धकैः निर्देशं स्वीकृत्य उत्तर भारते आतंकी घटनायाः योजनां विनिर्माति स्म। आरक्षिबलेन अवैध सामग्र्यः अपि अधिगताः। संस्कृतवार्तायाः संस्करणम् इदम् इदानीम् आकाशवाणीतः प्रसार्यते। सममेव कार्यक्रमोऽयम् आकाशवाण्याः अन्तर्जालपटले www.newsonair.com इत्यत्र अथ न्यूज ऑन एआईआर चलदूरभाषीयतन्त्रांशे अपि उपलब्धो भविष्यति। राष्ट्रमध्ये राष्ट्रपित्रे महात्मा गांधीवर्याय तस्य 450+1 विदेशे च भारतीय अभियान सम्बद्ध समारोहाणाम् एका श्रृंखला आयोज्यते। राष्ट्रिय राजधान्याः राजघाटस्थले राष्ट्रपितुः समाधिस्थले सर्वधर्म प्रार्थना सभायाः आयोजनम् अभवत्। राष्ट्रपतिः द्रौपदी मुर्मुः उपराष्ट्रपतिः जगदीप धनखड़ः प्रधानमन्त्री श्रीनरेन्द्रमोदी च अद्य प्रातः राजघाटे महात्मगान्धिने पुष्पाञ्जलिं समर्पितवन्तः। पुष्पाञ्जलि अर्पितवत्सु जनेषु लोकसभाध्यक्षः ओमबिरलाः, केन्द्रीयमन्त्री हरदीपसिंहपुरी, डॉ जितेन्द्रसिंहः, मीनाक्षीलेखी, कांग्रेसाध्यक्षः मल्लिकार्जुनखड़गे च सम्मिलिताः वर्तन्ते स्म। राष्ट्रपति पदासीना द्रौपदी मुर्मुः प्रोक्तवती यत् महात्मगान्धिनः सत्याहिंसयोः प्रयोगादर्शेण सम्पूर्णविश्वाय नवीन मार्गः आविष्कृतः। अनेन सहैव गान्धिवर्येण आजीवनं न केवलं अहिंसायाः कृते अपि तु स्वच्छता, महिला सशक्तिकरण, आत्मनिर्भर कृषकाणामधिकारेभ्यः अपि संघर्षः कृतः। स्वकीय सन्देशे उपराष्ट्रपतिना प्रोक्तं यत् महात्मगान्धिवर्यस्य सत्याहिंसयोः सिद्धान्तः औपनिवेशिक शासनं विरुध्य भारतस्य स्वतन्त्रता संघर्षे मार्गदर्शकः आसीत्। प्रधानमन्त्री कथितवान् यत् महात्मगान्धिवर्यस्य कालविजय शिक्षाः अस्माकं मार्गदर्शनं कुर्वन्ति। तेनोक्तं यत् गान्धीवर्यस्य प्रभावः वैश्विको वर्तते, यः सम्पूर्णमानवजातिम् एकता करुणयोः भावनां चाग्रे संवर्धयितुं प्रेरयति। भारते फ्रांसीय दूतावासेन अद्य महात्मगान्धिवर्याय श्रद्धाञ्जलि समर्पितः। प्रोक्तं च यत् फ्रांसदेशेन महात्मगान्धिवर्येण उल्लिखितानि अहिंसा, शान्ति, सहिष्णुता मूल्यानि यथावत् संस्थापितानि। अद्य पूर्व प्रधानमन्त्रिणे लालबहादुर शास्त्रीवर्याय चापि तस्य जयन्त्युपलक्ष्ये राष्ट्रपतिः द्रौपदी मुर्मुः, उपराष्ट्रपतिः जगदीप धनखड़, प्रधानमन्त्री नरेन्द्रमोदी च राष्ट्रिय राजधान्यां लालबहादुर शास्त्रीवर्यस्य स्मारके विजयघाटे तस्मै पुष्पाञ्जलिं समर्पितवन्तः। प्रधानमन्त्री श्रीमोदी अभिव्यक्तवान् यत् शास्त्रीवर्यस्य सरलता, राष्ट्रं प्रति तस्य समर्पणं, जय जवान जय किसान इति उद्घोषः च अद्यापि सोत्साहं समुद्घोष्यते, आगामि वंशानुक्रमाय चापि प्रेरणां प्रददाति। त्रयोविंशत्यधिकद्विसहस्रतमवर्षस्य नोबलाख्यः पुरस्कारः कैटालिन कारिको ड्रू बिस्मैन इत्यस्य च कृते प्रदत्तः। अस्य वर्षस्य प्रदीयमानस्य नोबल इत्याख्यस्य पुरस्कारस्य घोषणा संजाता। अस्य वर्षस्य अयं पुरस्कारः औषधि फिजियोलॉजी इत्यनयोः च क्षेत्रयोः कृते प्रदत्तः। प्रधानमन्त्री श्रीनरेन्द्रमोदी स्वच्छ भारताभियानस्य द्वितीय चरणस्य अन्तर्गतं क्रियात्मक श्रेण्यां शत प्रतिशतं मुक्त मलत्यागरहितानां मुक्तानाञ्च समर्जितानां ग्रामाणां कृते जम्मू काश्मीरस्य प्रशंसां विहितवान्। एकस्मिन् सामाजिक अन्तर्जाल सन्देशे असौ प्रोदीरितवान् यत् स्वच्छ स्वस्थ भारतस्य दिशि एकः महत्वपूर्णः पदक्षेपो वर्तते। केन्द्रीय गृहमन्त्रिणा अमितशाहेनापि जम्मू काश्मीरस्य जनेभ्य वर्धापनानि प्रदत्तानि। असौ कथितवान् यत् अनुच्छेद 70+30 इत्यस्य निरसनानन्तरं केन्द्रशासित प्रदेशेन प्रभूतो विकासः समर्जितः। केन्द्रप्रशासनेन प्रचाल्यमानाः योजनाः सम्प्रति जम्मू काश्मीरस्य प्रत्येकं क्षेत्रं प्रति गच्छन्ति। तत्रत्य निवासिनः आगतानि परिवर्तनानि स्वीय जीवने एव अवलोकयन्तः सन्ति। जम्मू काश्मीरे उपराज्यपालेन मनोज सिन्हावर्येण अद्य श्रीनगर लोकसचिवालये राष्ट्रपितुः जयन्त्यवसरे श्रद्धाञ्जलिस्वरूपेण महात्मा गान्धिनः प्रतिमायाः तस्य च तन्तुवायचक्रस्य स्थापनायाः अनावरणं कृतम्। उपराज्यपालेन कथितं यत् राष्ट्रपिता सर्वदा कथयति स्म यत् एतस्य तन्तुवायचक्रस्य सन्देशः तस्य मूर्तपरिधेः इतोऽपि व्यापको वर्तते। तेनोक्तं यत् अस्य चक्रस्य लक्ष्यं मानवजातेः सेवा, हिंसारहित जीवनं, मूलधन श्रमयोर्मध्ये सन्धे स्थापनं चास्ति। श्री सिन्हाः प्रावोचत् यत् गान्धिवर्येण अस्य तन्तुवायचक्रस्य उपयोगः आङ्ग्लशासकान् विरुध्य जायमाने संघर्षे महत्वपूर्ण शस्त्ररूपेण कृतः आसीत्। एशियाई क्रीडासु चीनस्य हौंचौ नगरे अद्य भारतेन 9 रजतपदकानि, 4 कांस्यपदकानि चाधिकृतानि। पदकतालिकायां भारतं 13 स्वर्णपदकानि, 22 रजतपदकानि, 23 कांस्यपदकानि च समेत्य 58 पदकानि विजित्य चतुर्थं स्थानं भजते इति वार्ताः।